महिम्नः स्तोत्रम् श्री गणेशाय नमः। पुष्पदन्त उवाच
Oh, please. भवति गत सारं भुजवयं बलात् कैलासेऽपि त्वदधिवससौ हि प्रमयतः
Oh,
सत्वोद्रिक्को मृडाय नमो नमः। प्रमहति पदे निस्त्रैगुण्ये शिवाय नमो नमः। कृशपरिणति चेतं क्लेशवश्यं क्वचेदं क्वचितव गुणसीमो लंघिनी शश्वदद्धिः। इति जगित ममन्दिं कृत्या भक्तिराधा वरद चरणयोस्ते वाक्य पुष्पोपहारम्। असितगिरिं समं स्यात् सज्जलं सिन्धुपात्रे सुरतरुवर्षाखा लेखिनी पत्रमुर्वी। लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीषु पारं न याति। असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलैर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य। सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिर्मलधुवृत्तैः स्तोत्रमेतच्चकार। अहरहर नवध्यं धूर्जटैः स्तोत्रमेतत् पठति परं भक्त्या शुद्धचित्तः पुमान्यः। स भवति शिवलोके रुद्रतुर्यस्तथात्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश। महेशान्ना परो देवो महिम्नो ना परः स्तुतिः। अघोरान्ना परो मन्त्रो नास्ति तत्त्वं गुरुः परम्। दीक्षादानं तपस्तीर्थं ज्ञानं यागादिकः क्रियाः महिम्नः स्तव पाठस्य कलां नार्हति षोडशीं। कुसुमदशन नामा सर्वगन्धर्वराजः शशिधरवरमौलैर्देवदेवस्य दासः। स गुरुनिजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकाशी दिव्यदिव्यं महिम्नः। सुरवरमुनिपूज्यं सर्वमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः। व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदं ममोघम् पुष्पदन्तप्रणीतम्। श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्विषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन स्तुप्रीणीतो भवति भूतपतिर्महेशः। स्तुप्रीणीतो भवति भूतपतिर्महेशः। इत्येषा वाङ्मयी पूजा श्रीमत्शंकर पादयोः अर्पिता तेन देवेशः प्रीयतां मे सदा शिवः तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर यादृशोऽसि महादेव तादृशाय नमो नमः एककालं द्विकालं वा त्रिकालं यः पठेन्नरः इति श्रीपुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्।